एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिना विद्यादेवी भण्डारिणा संघीय संसदः सदनद्वये नैव पारितीकृत्या प्रमाणीकरणाय प्रस्तुतानि त्रीणि विधेयकानि प्रमाणीकृतानि सन्ति। राष्ट्रपतिना भण्डारिणा गतदिने शिक्षा सम्बद्धानां कतिचिद् नेपालादि नियमानां संशोधक विधेयकं, क्रीडा विकास सम्बद्ध विधेये संशोधनाय एकीकरणाय च निर्मितं विधेयकं, रेडियोधर्मी पदार्थानां उपयोग नियमनयोः सम्बन्धे व्यवस्थां विधातुं निर्मितं विधेयकं च प्रमाणीकृतानि इति राष्ट्रपतेः कार्यालयस्य प्रवक्ता हरिप्रसाद दाहाल ज्ञापयति। वृष्ट्या सहैव दूरापन्नेन वज्रपातेन सप्तरी, मकवानपुर, उदयपुर, कपिलवस्तु, मोरङ जनपदेषु नवमृताः, जनत्रयमाहतञ्च सन्ति। सप्तरी जनपदस्य सप्तकोशी नद्यां गतदिने स्नानस्य क्रमे वज्रपातेन महदेवा ग्रामपालिकायाः षष्टिवर्षीया छेदी ठाकुरः, सप्तविंशतिवर्षीयो वेचन यादवश्च मृतौ इति सप्तरी जनपद प्रहरी कार्यालयस्य प्रहरी नायबो परीक्षकः तिलक भारती ज्ञापयति। एवं एतस्यैव जनपदस्य डाक्नेश्वरी नगरपालिकायाः लछनपट्टि स्थानस्य त्रिंशद्वर्षीया ललितादेवी यादवः, राजगढ़ ग्रामपालिकायाः वेल्ही चपेन स्थानस्य पञ्चचत्वारिंशद्वर्षीया केसी शाह च मृतौ इति च प्रहरी नायबो परीक्षकः भारती अज्ञापयत्। एवमेव मकवानपुरे बुधवासरस्य रात्रौ वज्रपातेन जनद्वयं मृतमस्ति। वज्रपातेन वकैया ग्रामपालिकायाः कालापानी स्थानस्य पञ्चविंशतिवर्षीया बीना घिसिङ, सप्तदशवर्षीया सम्झना घिसिङ च मृते इति मकवानपुर जनपद प्रहरी कार्यालयो ज्ञापयति। एवमेव वज्रपातेन उदयपुरे त्रियुगा नगरपालिकायाः पञ्चचत्वारिंशत् वर्षीयः कानून चौधरी मृता इति उदयपुर प्रहरी कार्यालयस्य प्रवक्ता प्रहरी परीक्षक गोविन्दपुरी अज्ञापयत्। एवं कपिलवस्तु मोरङ जनपदयोः वज्रपातेन जनद्वयं मृतं वर्तते। कपिलवस्तु जनपदस्य शिवराज नगरपालिकायाः पञ्चचत्वारिंशत् वर्षीय सत्यनारायण कुर्मी, मोरङ जनपदस्य सुनवर्षी नगरपालिकायाः रमनपुर टोल स्थानस्य सप्तविंशति वर्षीयो महादेवलाल दासश्च वज्रपातेन मृतौ इति प्रहरी ज्ञापयति। आगामी दिनचतुष्टयावधि आराष्टं वर्षाकालस्य सक्रियतायाः कारणेन प्रायः स्थानेषु वृष्टिर्भविष्यतीति हेतोः सावधानताम् अवलम्बितुं जलवायु विज्ञान विभागेन अनुरुद्धं वर्तते। जलवायुविद् वरुण पौडेलः तराई भागे चुरे क्षेत्रे च अधिकवृष्टेः सम्भावनास्तीति हेतोः नदीनां प्रवाहो वर्धिष्यते इति ज्ञापयन् सचेष्टाः भवितुं सर्वसाधारणान् अन्वरुणत्। भूमिः क्लेन् नास्ति इत्यतः ईषद् वृष्ट्यापि जलविप्लव भूस्खलन निमज्जन कर्तन नानां सम्भावना अधिका वर्तते। तराईचुरे क्षेत्रयो वज्रपातस्य संकटश्च आस्ते इति विभागोऽसौ ज्ञापयति। आगामिषु कतिचित् दिवसेषु कोशी, कनकाई, बागमती, कमला नदीषु प्रवाह वर्धिष्यते इति जलविज्ञ सुनिल पोखरेलः अवोचत। कनकाई, कोशी, राप्ती नदीषु जलविप्लव सावधानता स्तरं यावत् प्राप्स्यति इति असौ अगदत्। गतदिने शतत्रयस्य द्वादशानाञ्च जनानां कोरोना संक्रमणात् मुक्ताः सन्त गृह प्रत्यावर्तनानन्तरं नेपाले अद्यावधि समग्रतः कोरोना मुक्तानां जनानां संख्या सहस्रद्वयं पञ्चाशदधिक शतं च प्राप्ता वर्तते। गतदिने विभिन्नेभ्यः एकान्तवासेभ्यः शतद्वयं त्रयोनवतिश्च पुरुषाः, ऊनविंशतिः महिलाश्च संक्रमणमुक्ताः अभवन् इति स्वास्थ्य मन्त्रालयो ज्ञापयति। एवमेव गतदिने शतचतुस्त्रिंशति च जनेषु कोरोना संक्रमणस्य पुष्ट्या सैव नेपाले अद्यावधि समग्रता संक्रान्तानां जनानां संख्या एकादश सहस्राणि द्विषष्ट्यधिक शतं च प्राप्तास्ति। गतदिने विभिन्नासु प्रयोगशालासु विहिते परीक्षणे शतत्रये षडशीत्यांश पुरुषेषु अष्टचत्वारिंशति महिलासु च संक्रमणं दृष्टमिति स्वास्थ्य मन्त्रालय अज्ञापयत्। एवमेव स्याङ्जा जनपदस्य आदिखोला स्थानस्य जनैकस्य, ललितपुरस्य महालक्ष्मी स्थानस्य जनैकस्य च मृत्यु अनन्तरं नेपाले कोरोना पुष्टे अनन्तरं मृतानां जनानां संख्या षड्विंशतिः प्राप्तास्ति। नेपाल यातायात व्यवसायी राष्ट्रिय महासंघेन परिपिधानस्य समये सार्वजनिक यातायात साधनैः यात्रिणां नयनानयने न कर्तुम् अनुरुद्धं वर्तते। महासंघस्य महासचिवेन पुण्यप्रसाद सिटौला सरोजेन ह्यो विज्ञप्तिं प्रकाश्य स्वास्थ्य मापदण्डस्य च पालनेन विना सार्वजनिक यातायात साधनानां सञ्चालनात् कोविड ऊनविंशतेः संकटः सृज्यते इति हेतोः एवंविधं कार्यं निषेद्धुं सर्वकारश्च अनुरुद्धोऽस्ति। विज्ञप्तौ सार्वजनिक यातायात साधनैः स्वेच्छाचारितया यात्रिणां नयनानयनाभ्यां सम्भाव्यस्य कोरोना विषाणोः संकटस्य दायित्वं महासंघः न निर्वहतीति स्पष्टीकृतं वर्तते। सर्वकारेण पर्याप्त गृहकार्येण नियमित प्रक्रियायाः अन्तर्गतम् ई पासपोर्ट नाम्नाम् वैद्युत पारपत्राणाम् मुद्रण सम्बद्धम् आह्वानपत्रम् आकारितम् इति स्पष्टीकृतम् वर्तते। प्रतिनिधिसभायाः अन्तर्राष्ट्रिय सम्बन्ध समितेः गतदिवसीयोपवेशे समितेः सदस्यानाम् जिज्ञासाम् समाधदानः पारपत्र विभागस्य महानिर्देशकः रामकाजी खड्गा सप्तवीर वर्षैः नीति कार्यक्रमेषु आयव्ययके च उल्लेखनस्य कारणात् नियमित कार्यस्य रूपेण वैद्युत पारपत्राणाम् विषयः अग्रे वर्धापितोऽस्ति इति अज्ञापयत्। इति समाचारः।